एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सत्ता गठबन्धनस्य नेतृणामध्ये मन्त्रीपरिषदे शीघ्रं पूर्णता प्रदानाय सहमति धृता वर्तते। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे गतदिने उपविष्टे गठबन्धनस्य शीर्ष नेतृणाम् उपवेशे सामयिक राजनीतिक विषयं समीक्षा गठबन्धनस्य शीर्ष नेतारः सर्वकार सञ्चालनस्य सम्बन्धे प्रधानमन्त्रिणं शेरबहादुरदेवाविदं परामृशन् इति कांग्रेस दलस्य महामन्त्री पूर्णबहादुर खड्का अज्ञापयत्। महामन्त्री खड्का विमर्शनस्य क्रमे उत्थापितानां प्रश्नानां सम्बन्धे सर्वकारे सहभागिभिः मन्त्रिभिः शीर्ष नेतृभिश्च सह विमृश्य अतिरिक्त निर्णय विधास्यते इत्यभासत। उपवेशे कांग्रेस दलस्य पक्षत प्रधानमन्त्री देउवा, वरिष्ठ नेता रामचन्द्र पौडेलः, महामन्त्री खड्गा, नेता कृष्ण प्रसाद सिटौला च, माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः, नेता नारायण काजी श्रेष्ठश्च, एकीकृत समाजवादिनः अध्यक्ष माधव कुमार नेपालः, जसपा दलस्य केन्द्रीय परिषदः अध्यक्ष डाक्टर बाबुराम भट्टराई, अध्यक्ष उपेन्द्र यादवश्च सहभागिनः आसन्। प्रधानमन्त्रिणा शेरबहादुरदेउवाविदेन यथाशीघ्रं काष्ठमण्डपस्य अवकरस्य उत्थानाय प्रबन्धनं विधातुं काष्ठमण्डप महानगरपालिका निर्दिष्टा वर्तते। प्रधानमन्त्री देउवा महानगरपालिकायाः प्रमुखं विद्यासुन्दर साक्यम्, उपप्रमुखं हरिप्रभा खड्गी इतिमां च ह्यो बालुवाटार वर्तिनी प्रधानमन्त्री निवासे आकार्य अवकरोत्थानाय तत्कालम् आवश्यक प्रबन्धनं कर्तुं निरदिशत्। प्रधानमन्त्री देउवा तत्र नेपाल सर्वकारस्य पक्षतः पूर्ण सहयोगो भवतीति अभासत। असौ सम्बद्धैः अन्यैः सर्वकारीय निकायैरपि समन्वय विधीयते इति ब्रुवन् काष्ठमण्डपस्य अवकरस्य उत्थापनाय व्यवस्थां कर्तुं निरदिशतीति प्रधानमन्त्रिणः नैज सचिवालयो ज्ञापयति। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः भासते गठबन्धनस्य सर्वकारः शीघ्रं विस्तारयिष्यते। दलसम्बद्धया सर्लाई काष्ठमण्डप सम्पर्क समित्या ह्य आयोजिते कार्यक्रमे अध्यक्ष प्रचण्डः अवदत् आवश्यक विमर्शनेन अद्ययावत् सर्वकार विस्ताराय निष्कर्षे प्राप्यते। असौ दलैकतायाः अनन्तरं माओवादिना सह अनावश्यक क्रीडायाः क्रीडनस्य कारणेन केपी शर्मा ओलिना नेतृत्वस्य सर्वकारः विघटिता, प्रदेश सर्वकारस्य तादृशीम् अवस्थां प्राप्ताः सन्तीति अब्रवीत्। सर्वकारेण संघीय संसद अधिवेशनम् आभातम् गृहकार्यम् प्रारब्धमस्ति। विधि न्याय संसदीय विषय मन्त्री ज्ञानेन्द्र बहादुर कार्की अधिवेशनस्य आह्वानस्य सन्दर्भे सर्वकारेण गठबन्धने स्थितानां राजनीतिक दलानां प्रमुख सचेतक पदैः सचेतक पदीयैश्च सह ह्यो व्यमृशत्। प्रधानमन्त्रिणः शेरबहादुरदेउवाविदस्य नेतृत्वे गता षाढमासस्य 29 दिवसे नूतन सर्वकारस्य संघटनानन्तरं पूर्ववर्तिना सर्वकारेण गत ज्येष्ठस्य 15 दिवसे अध्यादेशस्य माध्यमेन आनीतम् आयव्ययकं सपरिमार्जनं पारितीकर्तुं सर्वकारेण अधिवेशनम् आहूयमानमस्ति। संसद अधिवेशनस्य प्रारम्भात् 60 दिनानाम् अभ्यन्तरे अध्यादेशस्य प्रतिस्थापनस्य निष्क्रियकरणस्य वा सांविधानिकी व्यवस्था वर्तते। सर्वोच्च न्यायालयस्य आदेशानुसारेण प्रधानमन्त्रिणा देउवाविदेन विश्वासमत परीक्षणस्य सन्दर्भे गत श्रावणस्य 3 दिवसे आहूतम् अधिवेशनं श्रावणस्य 23 दिवसे अन्तं सम्भूतम् आसीत्। अधिवेशनस्य प्रारम्भस्य दिने एव अर्थमन्त्रिणा जनार्दन शर्मणा सदन समक्षम् आर्थिकाध्यादेश, विनियोजिताध्यादेश, राष्ट्र ऋणोत्थापनाध्यादेशश्च सदने प्रस्तुताः आसन्। एतेषाम् अध्यादेशानां निर्णय आश्विनस्य 3 दिवसस्य अभ्यन्तरे विधेयोऽस्तीत्यतः संसद अधिवेशनस्य आह्वानाय गृहकार्यम् प्रारब्धम् वर्तते। नेकपा एमाले दलेन प्रदेशेभ्यः स्थानीय स्तर पार्यन्तिकासु अन्तर्गतासु समितिसु च 10 प्रस्तावस्य क्रियान्वयनाय दलस्य नेतृभ्यो दायित्व प्रदत्तम् वर्तते। दलाध्यक्षेण केपी शर्मा ओलिना प्रकाशिते अन्तर्दल निर्देशने प्रादेशिकासु जनपदीयासु एतदन्तर्गतासु समितिसु च 10 प्रस्तावस्य क्रियान्वयनाय सहजीकरणम् कर्तुम् 7 एव प्रदेशेषु दलस्य नेतृभ्यो दायित्वम् दत्तमस्तीति ज्ञापितम् वर्तते। दलाध्यक्षेण ओलिना प्रकाशिते निर्देशने दलम् एकताबद्धम् जीवितम् च विधाय दलम् 75+2000 विक्रम वर्षस्य ज्येष्ठ मासस्य 2 दिवसस्य अवस्थायाम् प्रत्यावृतमिति यथार्थम् ध्यात्वा कार्याणि विधातुम् निर्दिष्टम् वर्तते। स्वास्थ्य जनसंख्या राज्यमन्त्री उमेश श्रेष्ठ कथयति सप्तसु एव प्रदेशेषु प्रसूति स्त्रीरोग सम्बद्ध सेवाया विस्ताराय पूर्व कार्यम विहितं वर्तते। परोपकार प्रसूति स्त्रीरोग चिकित्सालयस्य 62तमस्य वार्षिकोत्सवस्य कार्यक्रमं ह्यः सम्बोधयन् राज्यमन्त्री श्रेष्ठ एवं अज्ञापयत् असौ कोरोना विषाणो विरोधी टीकाकरणं सर्वकारस्य प्राथमिकता अस्तीति भासमाण चत्वारिंशत् लक्ष्याणि मोडना नामधेयानि षष्टिम् लक्ष्याणि फाइजर नामानि च टीकाकरणानि आनेतुम् प्रयत्यमानमस्तीति अबोधयत्। ह्याराष्ट्रम् सहस्रद्वय पञ्चनवत्यधिक शतद्वय च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। सम्प्रति विंशत्यां जनपदेषु पञ्चशतादपि अधिकाः सक्रिय संक्रान्ताः जनाः सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्यः आराष्ट्रम् अतिरिक्ताः सहस्रम् अष्टाधिकाष्ट शतं च जना कोरोना संक्रमणात् मुक्ताः सन्ति। आराष्ट्रम् ह्यः संक्रमणेन अतिरिक्ताः 16 जनाः मृताः। एवमेव गतदिवसत्रये पञ्चलक्षेषु सप्तनवत्यां सहस्रेषु अष्टानवत्यधिक पञ्चसहस्रेषु च जनेषु कोरोना प्रतिरोधी टीकाकरण आहितमस्तीति मन्त्रालयः सूचयति। नेकपा एकीकृत समाजवादी दलस्य वरिष्ठ नेता झलनाथ खनालः कथयति वामान्दोलनस्य नूतन शैल्या रूपान्तरणं विधेयम्। भारतस्य नयाँ दिल्ली स्थाने स्वास्थ्योपचारस्य अनन्तरं ह्यः स्वदेशं प्रत्यावृतः पूर्व प्रधानमन्त्री खनालः एमाले दले आत्मभि रक्तस्वेदौ वाहितौ सन्तौ अपि पश्चात्तन समये नेतृत्वेन तत् न सम्मानितमिति आरोपयत। असौ अतपरम् आत्मना दले कार्यकारी भूमिकायां न स्थित्वा देश जनतयो सेवायां यथासम्भवं सहयोग विधास्यते इति ज्ञापितवान्। सप्तति वर्षाणां वयस अनन्तरं दलस्य कस्यामपि कार्यकारी भूमिकायां न स्थातव्यमिति व्यवस्था विधानता क्रियान्वितव्येति वरिष्ठ नेतु खनालस्य कथनम् आसीत्। विधि न्याय संसदीय विषय मन्त्री ज्ञानेन्द्र बहादुर कार्की भाषते संक्रमणकालीन न्यायिक प्रकरणानि शीघ्रं निर्णयं प्राप्स्यन्ते। विलोपितानां पीडितानां जनानां अन्तर्राष्ट्रिय दिवसस्य अवसरे विलोपित व्यक्तिनाम् अनुसन्धानायोगेन ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री कार्की द्वन्द्वकालिक समस्याः यथाशीघ्रं समाधातुं प्रतिबद्धतां व्यक्तवान्। अफगानिस्तान देशात् अधुनावधि 28 शतं नेपाली नागरिकाः स्वदेशं प्रत्यावृताः सन्ति। परराष्ट्र मन्त्रालयस्य अनुसारेण ह्य एव टर्किस वायु सेवा विमानस्य नियमितो डयनस्य माध्यमेन 45 जना स्वदेशं प्रत्यावृताः सन्ति। मन्त्रालयस्य अनुसारेण काबुल स्थाने उद्धारस्य प्रतीक्षायां स्थितानाम् अतिरिक्तानां नेपाली नागरिकाणां स्वदेशं प्रत्यावर्तनाय आवश्यकः प्रयासः विधीयमानो वर्तते। स्वदेश प्रत्यावृतानां नेपाली नागरिकाणां कोविड 19 व्यवस्थापन केन्द्रात् स्वास्थ्य मापदण्डस्य अनुसारेण आवश्यक परीक्षणं विधाय व्यवस्थापनं विधीयमानमस्ति इति च मन्त्रालयेन सूचितं वर्तते। वरिष्ठ साहित्यकार आनन्द देव भट्ट 68 वर्षाणां वयसी ह्य काष्ठमण्डपस्य कालिका स्थानवर्तिनी नैज निवासे दिवंगत। षड् दशकेभ्यः अपि अधिक समय नेपाली साहित्यस्य प्रगतिशील चिन्तने सक्रिय साहित्यकारस्य भट्टस्य काव्यानि खण्डकाव्यानि समालोचना आत्मपरक निबन्धाश्चेति कृत्वा 30 अधिकाः कृतयः प्रकाशिताः सन्ति। 93-99 शततमे वैक्रमाब्दे जुम्ला जनपदे जनिम् लब्ध साहित्यकारो भट्ट प्रगतिशील लेखक संघस्य प्रगतिशील प्राध्यापक संघस्य च पूर्वाध्यक्षः आसीत्। दार्चुला जनपदस्य विभिन्नेषु स्थानेषु दुरापन्नयो जलविप्लव भूस्खलनयो कारणेन त्रयो मृता दौजनो विलुप्तौ च सन्ति। मृतकः दुह ग्रामपालिकाया प्रथमवडा क्षेत्रस्य वासपालिका स्थानस्य नरसिंह मोहर तदीया पत्नी कौसा मोहर पञ्चमवडा क्षेत्रस्य दुल्ला स्थानस्य मनुवा डडालश्च सन्तीति प्रहरी ज्ञापयति।